कृपां कुरु जगन्मातः मामेवं हत तेजसं गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितं ज्ञानं देहि स्मृतिं देहि विद्या विद्यादि देवते प्रतिष्ठां कवितां देहि शक्ति शिष्य प्रबोधिनी ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितं प्रतिभां सत्सभायां च विचारक्षमतां शुभां लुप्तं सर्वं दैववशान्न विभूतं पुनः कुरु यथाङ्कुरं भस्मनि च करोति देवता पुनः सर्वं मूकमुन्मत्तवत्सदा वागधिष्ठातृदेवेया तस्यै वाण्यै नमो नमः सर्गबिन्दु मात्राणां यदधिष्ठानमेव च इत्थं त्वं गीयसे सद्भिर्भारत्यैते नमो नमः जया विना च संख्याथां संख्याकर्तुं न शक्यते काल संख्या स्वरूपाया तस् तस्यै देव्यै नमो नमः। व्याख्यास्वरूपाय देवी व्याख्याधिष्ठातृदेवता भ्रमसिद्धान्त
नमो नमः सरस्वत्यै नमः।